एषा रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई। प्रधानमन्त्री नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षस्य केपी शर्मा ओली भाषते आगामी निर्वाचनम् बारम्बारम् विहितस्य आन्दोलनस्य उपलब्धीनाम् लोकतान्त्रिकाभ्यासस्य च भविष्यम् निर्धारयिष्यति। नेकपा निकटस्थानम् व्यवसायनम् मेलनम् गतदिने काष्ठमण्डपे सम्बोधयन् प्रधानमन्त्री ओली अवोचत् आगामी निर्वाचनम् देशस्य आगामी गन्तव्यम् निर्धारयिष्यति। प्रधानमन्त्री ओली निर्वाचनम् राजनैतिक दलानाम् परीक्षा च अस्थिति हेतो देशाय यथार्थदिङ् निर्देशनम् कर्तुम् समर्थम् राजनैतिक दलम् प्रचेतुम् अशेष मतदातृन् अनुरुणत्। प्रधानमन्त्री ओली संविधानस्य अनुसारेण प्रतिनिधि सभाया पुनस्थापनाय सम्भावना नास्तीति चर्चन् अभाषत केवलम् निर्वाचनम् समाधानम् दातुम् शक्नोति। प्रधानमन्त्रिणा ओलिना समृद्धो नेपाल सुखिनो नेपालिनश्चेति स्वप्नस्य विफलीकरणस्य उद्देश्येन आत्मने दले सर्वकारे च परिवेष्टनम् विहितम् तदनु पश्चात्तन राजनैतिक घटनाक्रम विकसितो स्थिति तर्कितम्। प्रधानमन्त्री ओली अकथयत् देशोन्नतिम् विलोकयितुम् असमर्थानाम् व्यक्तिनाम् समूह नेपाल कम्युनिष्ट पार्टी नेकपा दलम् परित्यज्य गत इत्यतः आगामी दिनेषु दलम् इतोऽपि संघटितम् भूत्वा सशक्ति अग्रे वर्धिष्यते। प्रधानमन्त्री केपी शर्मा ओली नेपालस्य गौरवपूर्ण इतिहासस्य संरक्षणेन सह लोकतन्त्रस्य रक्षायै एकताबद्ध भवितुम् सर्वान् सुरक्षा निकायन् राष्ट्रसेवकान् कर्मचारिण सर्वसाधारण नागरिकांश्च अनुरुणद्धि। विंशस्य सशस्त्र प्रहरी दिवसस्य अवसरे ह्य हलचोकवर्तिनी सशस्त्र प्रहरी मुख्यालये आयोजिते कार्यक्रमे प्रधानमन्त्री ओली लोकतन्त्रे निर्वाचनम् अपरिहार्यम् अस्ति इत्यतः आगामी वैशाख मासे सम्पत्स्यमानम् निर्वाचनम् स्वच्छम् निष्पक्षम् व्यवस्थितम् विश्वसनीयम् च कारयितुम् सक्रियतायै निर्दिशत्। प्रधानमन्त्री ओली प्रथम चरणे द्वितीय प्रदेशेन सह गण्डकी लुम्बिनी सुदूर पश्चिम प्रदेशेषु द्वितीय चरणे च प्रथम प्रदेशेन सह बागमती कर्णाली प्रदेशयो निर्वाचन भविष्यतीति अज्ञापयत्। प्रधानमन्त्री ओली भारत सर्वकारात् सहयोग स्वरूपेण प्राप्तम् कोविड 19 टीकाकरणम् अशैव माघस्य चतुर्दश दिवसात् अग्रपंक्तो क्रियारतेभ्यो जनेभ्यो प्रदातुम् प्रारप्स्यते। कतिचित् मासानाम् अभ्यन्तरे एव पर्याप्तम् टीकाकरणस्य आनयनकारी सर्वकार सन्नद्धश्च अस्थिति अज्ञापयत्। तदवसरे गृहमन्त्री रामबहादुर थापा आन्तरिक विद्रोह सशस्त्र समूहस्य समस्याया रूपेण दृष्टौस्त इति हेतोः अस्याः समस्याया समाधानाय सर्वै सुरक्षा निकाय सह समन्वय विधाय अग्रे वर्धितुम् सशस्त्र प्रहरिणो निरदिशत्। कार्यक्रमे प्रधानमन्त्री ओली बंगलादेशस्य ढाकास्थाने साम्प्रतमेव सम्पन्नाय महिला म्याराथन धावन क्रीडायाम् स्वर्ण पदक विजेत्रे पुष्पा भण्डारिणे पुरस्कार वित्तेन सह प्रमाणपत्र प्रदत्तवान्। तदवसरे सशस्त्र प्रहरी महानिरीक्षकेण शैलेन्द्र खनालेन संघटनस्य कार्ययोजनाय गतिविधिश्च विषये ज्ञापितम् आसीत्। सर्वोच्च न्यायालय प्रतिनिधि सभा विघटनस्य विरोधी संचल श्रवण विलोकनस्यैव क्रमे संस्थाप्य सो रविवासरे भविता। सर्वोच्च न्यायालयस्य सांविधानिक न्यायपीठेन आदेशाभियाचन निवेदनेषु विधि व्यवसायिनां विमर्शनस्य असमाप्तेः कारणात् विधीयमानं श्रवणं रविवासराय निर्धारितं वर्तते। सांविधानिक न्यायपीठे जायमानं श्रवणं ह्योऽपि प्राप्त बहुमतेन प्रधानमन्त्रिणा विहितस्य प्रतिनिधि सभा विघटनस्य विषय सांविधानिकोऽस्ति नवेति विवादे केन्द्रितः आसीत्। तत्पूर्वं गतदिवसीय न्यायपीठे महान्यायाधिवक्त्रा अग्नि खरेलेन राजपत्रे प्रकाशिता प्रतिनिधिसभाया विघटन विषयिणी सूचना प्रस्तुता आसीत्। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा वदति प्रदेश सर्वकारस्य विरूद्धे पंजीकारितस्य अविश्वास प्रस्तावस्य विषये आवश्यक निर्णयाय दलस्य प्रदेश संसदीय दलाय अधिकार प्रदानं व्यावहारिकं लोकतान्त्रिकं च भवति। प्रथम प्रदेशस्य बागमती प्रदेशस्य च सर्वकारयो पंजीकारितस्य अविश्वास प्रस्तावस्य विषये कांग्रेस दलेन विधातव्यस्य निर्णयस्य प्रक्रियास्य सम्बन्धी विमर्शनाय सम्बद्ध प्रदेशयो दल केन्द्रीय सदस्य सह सम्पन्ने उपवेशे असौ इमाम धारणा व्यक्तवान्। विमर्शनस्य क्रमे सभापतिना देउवा विधेन व्यक्ताय धारणा विपरीततया कथित संचार माध्यमेषु अस्पष्ट भ्रमपूर्णाश्च समाचार प्रकाशित इत्युदीर्य कांग्रेस दलेन ध्यानाकर्षणेन भ्रम निवारणार्थं ह्य संसूचना टिप्पणी वर्तते। दलस्य केन्द्रीय कार्यालयस्य मुख्य सचिवेन कृष्ण प्रसाद पौडेलेन विज्ञप्तिर्माध्यमेन यथार्थ विवरणे संसूचिता भूत्वा समाचारं सम्प्रेषयितुं सर्वे अनुरुद्धा सन्ति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रचण्ड नेपाल समूहेन प्रतिनिधि सभाया विघटनस्य विरूद्धे ह काष्ठमण्डपे विरोध सभा आयोजिता। विरोध सभायाम् अध्यक्ष पुष्पकमल दाहाल प्रचण्ड प्रतिनिधि सभाया विघटनस्य निर्णय सर्वोच्च न्यायालयेन निरस्तीकरिष्यति इति विश्वासं व्यक्तवान्। विरोध सभाम् दलस्य अपरोध्यक्ष माधव कुमार नेपाल, वरिष्ठ नेता झलनाथ खनाल, अन्य नेतारश सम्बोधितवन्तः। विरोध सभाया प्रारम्भात् प्राक नेत्री कार्यकर्तभि राजधानी विभिन्न स्थानीय जन प्रदर्शन यात्रा विहिता आसीत्। नेपाले ह्य अतिरिक्त 80,774 जना कोरोना संक्रमणात् मुक्ता सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। एतदनु नेपाले ह्यस्तनावधि कोरोना संक्रमण मुक्तानां जनानां अंकमान 10.97% प्रतिशतं प्राप्तमिति मन्त्रालयेन ज्ञापितमस्ति। ह्य आराष्ट्रम् अतिरिक्तेषु 2,73 जनेषु कोरोना संक्रमण पुष्टीभूतं वर्तते। ह्यस्तनावधि आराष्ट्रम् कोरोना विषाणु 1,034.6% सक्रिय संक्रान्त जना सन्तीति मन्त्रालयो ज्ञापयति। यः आराष्ट्रम् अतिरिक्त 7 जना कोरोना संक्रमणेन मृतः। एतदनु नेपाले ह्यस्तनावधि संक्रमणेन मृतानां जनानां समग्र संख्या 1,687.9% च प्राप्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयेन कोविड 19 विरूद्धस्य टीकाकरणाय व्यक्तिनां सूचीकरणं प्रारब्धमस्ति। मन्त्रालयस्य वरिष्ठ स्वास्थ्य प्रशासक डाक्टर गुणनिधि शर्मा टीकाकरणाय व्यक्तिनां विवरणं वैद्युत प्रणाल्यां संकलय्य मन्त्रालय प्रेषयितुं सर्वा स्वास्थ्य संस्था निर्दिष्टा सन्तीति अज्ञापयत्। मन्त्रालयस्य उपसचिव मुक्ति खनाल अधुनावधि 50,000+ अधिकानां व्यक्तिनां विवरणं टीकाकरणाय सूचीकृतमस्तीति असूचयत्। बागमती प्रदेशस्य मुख्यमन्त्रिणा डोरमणि पौडेलस्य विरूद्धे अविश्वासस्य प्रस्ताव प्रदेशसभायां प्रस्तुतो वर्तते। प्रदेशसभा ह्यस्तनोपवेशे प्रदेशस्य उद्योग पर्यटन वन वातावरण मन्त्रिणा पदात् प्रदत्त त्यागपत्रेण अरूणा नेपालेन अविश्वासस्य प्रस्ताव प्रस्तुतो वर्तते। अविश्वासस्य प्रस्तावं प्रस्तुवन् निवर्तमानो मन्त्री नेपाल संघीयता विषय जनमतं ग्रहीतुम् अभ्याचत। प्रदेशसभाया आगामी उपवेश अशैव माघस्य 19 दिवसे दिवा 2 बस्ता। राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष कमल थापा भाषते 62-63-200 वैक्रमादम अनु अवलम्बितस्य त्रुटिपूर्ण मार्गचित्रस्य कारणेन देश संकटस्य गर्ते निपतितोऽस्ति। मकवानपुरस्य मकवानपुर गढी ग्रामपालिकायां ह्य आयोजिते कार्यक्रमे असौ एवं अवोचत।